हरामि भवभीतिहरं सुरेशम् गङ्गाधरं वृषभवाहनमम्बिकेशम् खट्वाङ्गशूलवरदाभयहस्तमीशम् संसाररोगहरमौषधमद्वितीयम् नमामि गिरिशं गिरिजार्धदेहम् स्वर्गस्थिति प्रलयकारणमादिदेवम् विश्वेश्वरं विजित विश्वमनोभिरामम् संसाररोगहरमौषधमद्वितीयम् भजामि शिवमेकमनन्तमाद्यम् वेदान्तवेद्यमनघं पुरुषं महान्तम् नामादिभेदरहितं षडभावशून्यम् संसाररोगहरमौषधमद्वितीयम् प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येनुदिनं पठन्ति ते दुःखजातं बहुजन्मसञ्चितं हित्वा पदं यान्ति तदेव शम्भोः गङ्गाधरमुमाश्लिष्टं सर्वमङ्गलभाजनम् चिन्तयेत् प्रातरुत्थाय सर्वविघ्नौघशान्तये।